अथ धीवर्गः बुद्धिर्मनीषाधिषणा धीः प्रज्ञाशेमुषीमतिः प्रेक्षोपलब्धिश्चित्संवित् प्रतिपज्ञप्तिचेतनाः धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम् अवधानम् समाधानम् प्रणिधानम् तथैव च चित्ताभोगो मनस्कारः चर्चा सङ्ख्या विचारणा विमर्शो भावना चैव वासना च निगद्यते अध्याहारस्तर्क ऊहः विचिकित्सा तु संशयः सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः संविदागोः प्रतिज्ञानम् नियमाश्रवसंश्रवाः अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः मोक्षे धीर्ज्ञानमन्यत्र विज्ञानम् शिल्पशास्त्रयोः मुक्तिः कैवल्यनिर्वाणश्रेयो निःश्रेयसामृतम् मोक्षोपवर्गोऽथाज्ञानम् अविद्याहम् मतिस्त्रियाम् रूपम् शब्दो गन्धरसः स्पर्शाश्च विषया अमी गोचरा इन्द्रियार्थाश्च हृषीकम् विषयीन्द्रियम् कर्मेन्द्रियम् तु पायिवादि मनोनेत्रादिधीन्द्रियम् तु वरस्तु कषायोऽस्त्री मधुरो लवणः कटुः तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमीत्रिषु विमर्दोत्थे परिमलः गन्धे जनमनोहरे आमोदस्सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् समाकर्षीतु निर्हारी सुरभिर्घ्राणतर्पणः इष्टगन्धः सुगन्धिः स्यात् आमोदी मुखवासनः पूतिगन्धस्तु दुर्गन्धः विस्रंस्यादामगन्धियत् शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः अवदातः सितो गौरः वलक्षोधवलोऽर्जुनः हरिणः पाण्डुरः पाण्डुः ईषत्पाण्डुस्तु धूसरः कृष्णे नीलासितश्यामकालश्यामलमेचकाः पीतो गौरो हरिद्राभः पालाशो हरितो हरित् लोहितो रोहितो रक्तः शोणः कोकनदच्छविः अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ चित्रम् किर्मीरकल्माषशबलयिताश्च कर्पुरे गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वती इति धीवर्गः।